स गतः क्षितिमुष्ण सोनितार्द्रः खुरदंष्ट्राग्र निपातदारिताश्मा अशुभिः क्षणमीक्षितेन्द्रसूनुः विहिता मनुष गुर्ध्वनिर्निरासे स इति क्षितिम् गतः क्षितौ पतितः उष्णेन प्रत्यग्रत्वात् शोणितेन आर्द्रः पृतः खुराणाम् दंष्ट्रयोश्च अग्राणाम् निपातेन आघातेन दारिताश्मा पाटितपाषाणः किञ्च क्षणम् ईक्षितेन्द्रसूनुः स्वार्थविघातरोषात् इति भावः अत एव विहितः कृतः अमर्षगुरुः क्रोधोद्धतः ध्वनिः क्रन्दितम् येन सह तथा उक्तः सः वराहः अशुभिः प्राणैः निरासे निरासितः त्यक्त इत्यर्थः अस्य तेः कर्मणि लिटु इयञ्च स्वभावोक्तिः स्फुटपौरुषमापपातपार्थः तमधप्राज्यशरःशरम् जिगृक्षुः न तथा कृतवेदिनाम् करिष्यन् प्रियतामेति यथा कृतावदानः स्फुटेति अथ वराहपातानन्तरम् पार्थः अर्जुनः प्राज्यशरः प्रभूतशरः सन्नपि इत्यर्थः प्रभूतम् प्रचुरम् प्राज्यम् इत्यमरः स्फुटपौरुषम् व्यक्तविक्रमम् वराहभेदिनम् शरम् जिगृक्षुः ग्रहीतुम् इच्छुः ग्रहेः सन्नन्तात् उप्रत्ययः आपपात आधावति स्म कृतज्ञतया शरग्रहणम् न तु लोभात् इत्यर्थः ननु अन्येऽपि उपकर्तार एव किमिति अत्रैव आदरः तस्य इच्छत आह कृतवेदिनाम् कृतज्ञानाम् कृतावदानः कृतकर्मा अवदानम् कर्मवृत्तम् इत्यमरः यथा प्रियतामेति तथा करिष्यन् उपकरिष्यन् न प्रियतामेति कृतकरिष्यमाणयोः कृतम् बलीयः इति न्यायात् इति भावः अथ युग्मेनाह उपकार इवासति प्रयुक्तः स्थितिमप्राप्य मृगे गतः प्रणाशम् कुतशक्तिरधो मुखो गुरुत्वात् जनितव्रीड इवात्मपौरुषेण उपकार इति असति नीचे प्रयुक्तः उपकार इव मृगे स्थितिम् अप्राप्य प्रणाशम् अदर्शनम् गतः इत्युपमा यथा कृतशक्तिः कृतपौरुषः गुरुत्वात्तु लोहभारात्तु महत्वाच्च अधोमुखः नम्रमुखः अत एव आत्मपौरुषेण जनितव्रीडैव स्थितः इत्युत्प्रेक्षा स समुद्धरता विचिञ्चतेन स्वरुचम् कीर्तिमिवोत्तमाम् दधानः अनुयुक्त इव स्ववार्तमुच्चैः परिरेभेऽनुभृशम् विलोचनाभ्याम् स इति उत्तमाम् स्वरुचम् स्वकान्तिम् कीर्तिमिव दधान इत्युत्प्रेक्षा किञ्च विचिञ्च सर्वदा ग्राह्यः अयम् इति विमृश्य समुद्धरता तेन अर्जुनेन उच्चैः स्ववार्तम् स्वपाटवम् वार्तम् पाटवमारोग्यम् भव्यम् स्वास्थ्यमनामयम् इति यादवः अनुयुक्तः पृष्टैव स्थितः इत्युत्प्रेक्षा आदरात्तु तथा प्रतीयते इत्यर्थः प्रश्नोऽनुयोगः पृच्छा च इत्यमरः सः बाणः विलोचनाभ्याम् नयनाभ्याम् कृत्वा भृशम् परिरेभेनु आलिङ्गितः किम् इत्युत्प्रेक्ष तेन अत्यादरेण दृष्टः इत्यर्थः तत्र कार्मकभृतम् महाभुजः पश्यति स्म सहसा वनेचरम् सन्निकाशयितुमग्रतस्थितम् शासनम् कुसुमचापविद्विषः तत्रेति तत्र प्रदेशे महाभुजः अर्जुनः कुसुमचापविद्विषः स्मरारेः शासनम् வக்ஷ்யமானம் ஆதேசம் சன்னிகாசயுதும் சன்னிவேசயுதும் நிவேதயுதும் இது யாவத் அக்ரதஹாஸ்திதம் கார்மகபுரதம் வனேச்சரம் சஹசா சடிதி பஸ்யதி ஸ்ம இதஃ பிரபுதி ரதோத்ததாவ்ருத்தம் ராநராவிவரதோத்ததாலகௌ இது லட்சணாத் சப்ரயுஜ்ய தனயே மஹீபதே ஆத்மஜாதி சதுசீம் கிலானதிம் சாந்தபூர்வம் அபிநீதி ஹேதுகம் வக்துமித்தமுபசக்ரமே வசஹ சைதி சஹ வனேச்சரஹ மஹீபதே தனயே ராஜபுத்ரே அர்ஜுனே ஆத்மஜாதி சதுசீம் கிராத்தஜாத்யனரூபாம் கில கிலேதி ஜாதேஹ அலீகதாம் தரிசயதி யதஹ பரமார்த்ததஹ பிரமதயேவ சஹ ஆனதிம் பிரணதிம் பிரயுஜ்ய சாந்தபூர்வம் சாமபூர்வகம் சாமசாந்தமுபேசமே இத்யமரஹ அபிநீதி ஹேதுகம் பிரியயுக்தி ஹேதுகம் வசஹ இத்தம் வக்ஷ்யமான பிரகாரேண வக்தும் உபசக்ரமே உத்யுக்தவான் தத்ர தாவது சதுர்பிஹி சாந்தமாஹ சாந்ததா விநய யோகி மானசம் பூரிதாம விமலம் தபஸ்ருதம் ப்ராஹதேனு சதுசீ திவௌகசாம் அன்வவாயம் அவதாதமாக்ருதிஹி சாந்ததேதி சாந்ததா பஹிஹி அனௌத்தத்யம் தே தவ விநய யோகி அனௌத்தத்யயுக்தம் மானசம் கர்ம பிராஹனு ப்ரூதே கலு ததா பூரி பஹு தாம தேஜஹா யஸ்மின் தத் தபஹ கர்த்தும் விமலம் சம்பிரதாய சுத்தம் ஸ்ருதம் பிராஹ கிஞ்ச ஜௌஹு திவம் ஓகஹ ஏஷாம் தேஷாம் திவௌகசாம் தேவானாம் புருஷோதராதித்வாத் சாதுஹு திவம் ஸ்வர்கேந்தரிக்ஷே ச இதி விஸ்வஹ சதுசீ துல்யா ஆக்ருதிஹி மூர்த்திஹி அவதாதம் சுத்தம் ஆன்வவாயம் வம்சம் ப்ராஹ வம்சோன்வவாயஸ் சந்தானஹ இத்யமரஹ சாந்த்யாதிபிஹி லிங்கைஹி வினயாதயஹ அனுமீயந்தே அன்யதா ததசம்பவாத் இதி பாவஹ தீபிதஸ்வமனுபாவசம்பதா கௌரவேண லகயன் மஹீபிருதஹ ராஜசே முனிதபீஹகாரயன் ஆதிபத்யமிவ சாதமன்யவம் தீபித இதி முனிதபி ஐஸ்வர்யரஹிதோபி இத்யர்த்தஹ அனுபாவசம்பதா பிரபாவாதிசயேன தீபிதஹ பிரகாசிதஹ அனுபாவ பிரபாவேச இத்யமரஹ கௌரவேண மகத்தயா மஹீபிருதஹ ராஜ்ஞஹ லகயன் லகூகுர்வன் த்வம் இஹ அத்ரௌ சதமன்யோரிதம் சாதமன்யவம் ஐந்திரம் தஸ்யேதம் இச்சன் பிரச்சயஹ சதமன்யுஹ திவஸ்பதிஹ இச்சமரஹ அதிபதே கர்ம ஆதிபத்யம் த்ரைலோக்யரக்ஷாதிகாரம் பிராமணாதித்வாத் ஷை பிரச்சயஹ காரயன்னிவா இந்திரேண இதி சேஷஹ ராஜசே தஸ்யாபி உபஜீவ்ய இதி பிரதீயசே ஸ்வமஹிம்னா இத்யர்த்தஹ தாபசோபி விபுதாமுபேயிவான் ஆஸ்பதம் தமசி சர்வசம்பதாம் த்ருஸ்யதேஹி பவதோ விநாஜனைஹி அன்விதஸ்ய சசிவைரிவத்யுதிஹி தாபஸ இதி விபுதாம் பிரபாவம் உபேயிவான் உபகதஹ அதயேவ தாபசோபி த்வம் சர்வசம்பதாம் ஆஸ்பதம் ஸ்தானம் அசி ஆஸ்பதம் பிரதிஷ்டாயாம் இதி நிபாதஹ விபுதாமேவ சமர்த்தயதே ஹி யஸ்மாத் பவதஹ தவ ஜனைர் வினாபி ஏகாகினோபி இத்யர்த்தஹ சசிவைஹி அன்விதஸ்யேவ அமாத்யாதி யுக்தஸ்யேவ த்யுதிஹி தேஜஹ த்ருஸ்யதே அதஹ சர்வசம்பதாஸ்பதத்வம் யுக்தம் இத்யர்த்தஹ. विस्मयः कैव वा जयश्रिया नैव मुक्तिरपिते दवीयसी ईप्सितस्य न भवेदुपाश्रयः कस्य निर्जितरजस्तमो गुणः विस्मय इति किञ्च जयश्रिया हेतुना प्राप्तयापि इति शेषः कैव वा विस्मयः किमाश्चर्यम् न कश्चित् इत्यर्थः विस्मयोद्भुतमाश्चर्यम् चित्रम् इत्यमरः अतः मुक्तिरपि ते तव दवीयसी दोरतरा दुर्लभा न भवत्येव स्थूलदोर इत्यादिना यणादिपरलोपः पूर्वगुणश्च तथा हि निर्जितौ रजस्तमसी एव गुणौ येन सह भवत्सदृशः पुरुषः कस्य ईप्सितस्य वाञ्छितस्य उपाश्रयः आस्पदम् न भवेत् इत्यर्थः अथ आगमनप्रयोजनम् उपालम्भमुखेन आह हेपयन्नहिमतेजसं त्विषा सत्तमित्थमुपपन्नपौरुषः हर्तुमर्हसि वराहभेदिनम् नैनमस्मदधिपस्य सायकम् ह्रेपयन्निति त्विषा तेजसा अहिमतेजसम् उष्णतेजसम् ह्रेपयन् लज्जयन् उपपन्नपौरुषः सम्भावितपराक्रमः सः प्रसिद्धः त्वम् वराहभेदिनम् कृतोपकारम् इत्यर्थः एनम् त्वत्करगतम् अस्मदधिपस्य सायकम् शरम् इत्थम् साहसेन हर्तुम् नार्हसि अनर्हत्वमेव आह स्मर्यते तनुभृताम् सनातनम् न्याय्यमाचरितमुत्तमैः नृभिः त्वम् सते यदि भवादृशस्ततः कः प्रयातु वदते न वर्त्मना स्मर्यत इति उत्तमैः नृभिः सत्पुरुषैः मन्वादिभिः तनुभृताम् शरीरिणाम् सनातनम् नित्यम् न्याय्यम् न्यायादनपेतम् आचरितम् आचारः स्मर्यते कर्तव्यतया इति शेषः न तु अनाचारः इत्यर्थः अथापि अनाचारेण दोषमाह ध्वंसत इति भवानिव दृश्यते भवादृशः ततः सदाचारात्तु ध्वंसते भ्रश्यते यदि तदा तेन वर्त्मना न्यायमार्गेण कः प्रयातु गच्छतु वद कथय न कोऽपि इत्यर्थः तथा च सन्मार्ग एव शीलम् कुर्यात् इति भावः आकुमारमुपदेष्टुमिच्छवः सन्निवृत्तिमपधान्महापदः योगशक्तिचितजन्ममृच्छवः शीलयन्ति यतयः सुशीलताम् आकुमारमिति किञ्च योगशक्त्या आत्मज्ञानमहिम्ना जितौ जन्ममृत्यु यैः ते यतयः योगिनः कुमारेभ्यः आकुमारम् कुमारात् आरभ्य इत्यर्थः आङ्मर्यादाभिविध्योः इत्यव्ययीभावः महत्यः आपदः यस्मिन् तस्मात् महापदः महानर्थहेतोः इत्यर्थः अपधात्तु अमार्गात्तु पदो विभाषा इति निषेधविकल्पात् समासान्तः अपधम् नपुंसकम् सन्निवृत्तिम् अपगमम् उपदेष्टुम् इच्छवः सन्तः सुशीलताम् सद्वृत्तताम् शीलम् स्वभावे सद्वृत्ते इत्यमरः शीलयन्ति अभ्यस्यन्ति अतः न त्याज्यम् शीलमित्यर्थः न केवलम् सौशील्यात् अनर्थनिवृत्तिः किन्तु अर्थप्राप्तिरपि इत्याह तिष्ठताम् तपसि पुण्यमासजन् सम्पदोऽनुगुणयन् सुखैषिणाम् योगिनाम् परिणमन् विमुक्तये केन नास्तु विनयः सताम् प्रियः तिष्ठतामिति तपसि तिष्ठताम् तपोनिष्ठानाम् धर्मार्थिनामित्यर्थः पुण्यम् धर्मम् आसजन् सम्पादयन् स्याद्धर्ममस्त्रियाम् पुण्यश्रेयसी सुकृतम् वृषः इत्यमरः సుఖైషిణాం సుఖార్థినాం సంపద సుఖసాధనభూతాన్ అర్థాన్ అనుగుణయన్ అనుకూలయన్ అర్థకామయోరపి హేతుభూత ఇత్యర్థః. తథా యోగినాం విముక్తయే అపవర్గాయ పరిణమన్ సంపద్యమానః వినయః సౌశీల్యం కేన హేతునా సతాం ప్రియో నాస్తు సంభావనాయాం లోట్ సర్వధా వినయ ఏవ చతుర్వర్గ సాధనం ఇత్యర్థః. అతః త్వయా న అస్మత్స్వామి శరచౌర్యం కార్యం ఇది తాత్పర్యం. అథవా కిం భవాదృశేషు అన్య సంభావనయా యతః భ్రాంతిరపి సంభావ్యతే ఇతి మృదూక్తిం అవలంబ్య ఆహ. నూనమత్ర భవతశరాకృతిం సర్వధాయమనుయాతి సాయకః సోయమి చనుపపన్న సంశయః కారితస్త్వమపధే పదం యయా. నూనమితి అయం అస్మదీయః సాయకః అత్ర భవతః పూజ్యస్య ఇత్యర్థః. పూజ్యస్తత్ర భవాన్ అత్ర భవాన్ ఇతి సజ్జనః ఇతరాభ్యోపి దృశ్యంతే ఇతి సార్వవిభక్తికః తసిల్ ప్రత్యయః సుప్సుపా ఇతి సమాసః. శరాకృతిం సర్వధా రూపేణ లేఖాదినా సర్వప్రకారేణ అనుయాతి అనుసరతి అత్యంతం అనుకరోతి ఇత్యర్థః. నూనం ఇతి వితర్కే యయా ఆకృత్యా కర్త్యా త్వం అనుపపన్న సంశయః అత్యంత సాదృశ్యాత్తు అనుత్పన్న స్వాన్యదీయత్వ సందేహః సన్ సోయమితి యః స్వకీయః స ఏవ అయమితి భ్రాంచ్యుత్పత్త్యా ఏవ ఇతి శేషః. అపధే అమార్గే శరాపహరణ రూపే పదం కారితః నిధాపితః ఇత్యర్థః. హుక్రోరన్యతరస్యాం ఇత్యణి కర్తుః కర్మత న్యంతే కర్తృశ్చ కర్మణః ఇతి తత్రైవ అభీతే కర్మణి క్తః.